इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। निर्वाचनायोगेन पश्चिम बंगालस्य फाल्टा विधानसभा क्षेत्रे सहायक मतदान केन्द्राणि समेत्य सर्वेष् 85-200 मतदान केन्द्रेष् पुनर्मतदानाय आदेशः प्रदत्तः। आयोगेन उक्तं यत् बुधवासरे फाल्टा विधानसभा क्षेत्रे बृहत् संख्यायां मतदान केन्द्रेष् मतदानावधौ नैर्वाचनिकापराधः लोकतांत्रिक प्रक्रियायां विघ्नता च जाता। अस्य मासस्य 21 दिनांके सर्वेष् मतदान केन्द्रेष् प्रातः 7 वादनादारभ्य सायं 6 वादनं यावत् नूतन मतदानं भविष्यति। मतगणना मई मासस्य 24 दिनांके भविष्यति। पश्चिम बंगाले दक्षिण 24 परगना जनपदस्य 15 मतदान केन्द्रेष् ह्यः जाते पुनर्मतदाने प्रायः 90% यावत् मतदानं जातम्। द्वयोः विधानसभा क्षेत्रयोः पुनर्मतदानं शान्तिपूर्णरीत्या सम्पन्नताङ्गतम्। निर्वाचनायोगेन सम्बद्ध निर्वाचनाधिकारिभिः पर्यवेक्षकैः च प्राप्त प्रतिवेदनानाम् आधारे पुनर्मतदानस्य आदेशः प्रदत्तः आसीत्। पश्चिम बंगाल केरल तमिलनाडु असमेष् केन्द्र शासित प्रदेशे पुडुचेरी इत्यत्र संजातेभ्यः विधानसभा निर्वाचनेभ्यः मतगणना श्वः भविष्यति। निर्वाचनायोगेन पश्चिम बंगाल निर्वाचनेष् केवलं केन्द्र प्रशासनस्य कर्मचारिणः मतगणनायाः पर्यवेक्षकरूपेण नियुक्ताः। निर्वाचनायोगस्य अस्मिन् निर्णये भारतस्य सर्वोच्च न्यायालयः हस्तक्षेपं कर्तुं निराकृतवान्। न्यायमूर्ति पीएस नरसिम्हा न्यायमूर्ति जॉय मल्या बागची चेत्येतयोः पीठेन निर्देशः दत्तः यत् आयोगस्य दिङ्निर्देशानां पालनं कठोरतया भवेत्। स्नातक चिकित्सा शिक्षायां प्रवेशाय नीट यूजी इति राष्ट्रिय पात्रता सह प्रवेश परीक्षा अद्य आयोजयिष्यते। परीक्षा मध्याह्ने 2 वादनादारभ्य सायं 5 वादनं यावत् प्रचलिष्यति। नीट इत्येतस्य सूचनानुसारेण परीक्षा केन्द्रे प्रवेशानुमतिः मध्याह्ने 12:30 यावदेव भविष्यति। नीट यूजी इत्येतस्य आयोजनं राष्ट्रिय परीक्षण संस्थया स्वास्थ्य परिवार कल्याण मन्त्रालयस्य शिक्षा मन्त्रालयस्य च अनुमोदनेन स्नातक चिकित्सा शिक्षायां प्रवेशाय 19-2000 वर्षात् भवति। प्रधानमन्त्री नरेन्द्र मोदी डॉ आर बाला सुब्रह्मण्यम इत्येतस्मै डॉ जोरम अनिया इत्यस्यै च नीति आयोगस्य पूर्णकालिक सदस्यत्वेन नियुक्त्यर्थं शुभकामनां प्रदत्तवान्। सामाजिक संचार पटले एकस्मिन् संदेशे श्रीमोदिना उक्तं यत् तयोः समृद्धानुभवः विभिन्न प्रकरणेष् गहनः अवबोधः नीति निर्माणं सुदृढं करिष्यति। असौ विश्वासं प्रकटितवान् यत् तयोः योगदानेन विभिन्न क्षेत्रेष् नवाचारः विकासः च वर्धिष्येते इति। विदेशमन्त्री डॉ एस जयशंकरः जमैका सूरीनाम त्रिनिदाद टोबैगो चेत्येतेषाम् आधिकारिक यात्रायै प्रस्थास्यति। एषा यात्रा अस्य मासस्य 10 दिनांकं यावत् प्रचलिष्यति। गिरमिटिया समुदायानाम् उपस्थितेः कारणादेव एतेषां देशानां भारतेन सह विशिष्टः सम्बन्धः अस्ति। विदेशमन्त्रालयेन स्वीये वक्तव्ये उक्तं यत् यात्रावधौ डॉ जयशंकरः त्रिदेशानां नेतृत्वैः सह मेलनं करिष्यति। आईपीएल इति क्रिकेट प्रतिस्पर्धायां चेन्नई स्थे एमए चिदम्बरम क्रीडांगणे चेन्नई सुपर किंग्स दलेन मुंबई इंडियंस दलम 8 पराजितम्। हैदराबादस्य राजीव गांधी अन्ताराष्ट्रिय क्रीडांगणे मध्याह्ने 3:30 सनराइजर्स हैदराबाद दलम कोलकाता नाइट राइडर्स दलम सम्मुखीकरिष्यति। तत्रैव अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे सायं 7:30 गुजरात टाइटन्स दलम पंजाब किंग्स दलम सम्मुखीकरिष्यति। इति वार्ताः।